एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। निवेशन समित्या चतस्रीणाम् जलविद्युत परियोजनानाम् कृते षट्त्रिंशतः अब्जानाम् सप्तत्रिंशतः कोटीनाम् च रूप्यकाणाम् निवेशनम् स्वीकृतम् वर्तते। समितेः अध्यक्षस्य प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य अध्यक्षतायाम् गतदिने उपविष्टेन समितेः उपवेशेन रोल्बाजिङ खोला, छुजुङ खोला, दाना खोला, सानीभेरी जल विद्युत परियोजनानां कृते निवेशनमिदं स्वीकृतं वर्तते। उपवेशेन तमोर जलाशय युक्त जल विद्युत परियोजनायाः क्रियान्वयनस्य अग्रेवर्धनस्य सम्बन्धे इदानीन्तनं विकासक्रमं समीक्ष्य परियोजनायाः भावि कार्यदिक् सम्बद्धं परामर्शं प्रस्तुतं उच्चस्तरीय समिते संगठनार्थं निर्णीतमस्ति। उपवेशेन दाङ जनपदस्य राजापुर ग्रामपालिकायां पञ्चचत्वारिंशदुत्तर द्विशत मेगावट मित शक्तेः विंशति मेगावट मितायाः वैद्युत शक्ति द क्षमतायाश्च सौर्योर्जा परियोजनाया अध्ययनाय डोल्मा हिमालयन इनर्जी नामिकायै संस्थायै अध्ययनानुमति पत्रम् प्रदातुम् निर्णीतम् वर्तते। समित्या उपरितन कर्णाली जलविद्युत परियोजनायाः सम्बन्धे सर्वोच्च न्यायालयेन दत्तस्य निर्देशनात्मकादेशस्य क्रियान्वयनाय मन्त्रिपरिषदि प्रस्तावम् प्रस्तुतुम् निर्णीतम् वर्तते। उपवेशे समितेः अध्यक्षश्च प्रधानमन्त्री प्रचण्डः आगामि दिनेषु जलविद्युत परियोजनानाम् व्ययस्य निर्धारणावधौ कोषागाराणाम् निवेशन सामर्थ्यं विचार्य अतिरिक्तम् अध्ययनं विश्लेषणं च विधातुं निरदिशत। एवमेव प्रधानमन्त्री प्रचण्डः क्रियान्वीयमानाः परियोजनाः यथासमयं सम्पादयितुम् आवश्यक समन्वयं प्रगाडि कर्तुम् निवेशन स्वीकृतौ परियोजना क्रियान्वयने च विद्यमानाः प्रक्रियाः संक्षिप्य शीघ्रं सरलं परिणाममुखी च कार्यसम्पादनं विधातुं च सम्बद्धान् सर्वान् निकायान् निरदिशत। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते पश्चात्तन समय सामाजिक सञ्जालेन जनयुद्धस्य मधेसान्दोलनस्य च कलंकनस्य भ्रामक कार्यम् जायमानं वर्तते। समाजवादी संयुत्या वीरगंज नगरे पूर्वेद्यो आयोजिताम् प्रदेश सभाम् सम्बोधयन् प्रधानमन्त्री प्रचण्ड परिवर्तनस्य आन्दोलने सन्देश सभाम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः परिवर्तनस्य आन्दोलने सक्रियाणि दलानि नेतृञ्च लक्ष्यीकृत्य सामाजिक सञ्जालेन भ्रामक प्रचार प्रसारो विधीयमानो स्तः इत्यगदत्। प्रधानमन्त्री प्रचण्डः सर्वकारः मधेस क्षेत्रे विपुल समस्यायाः रूपेण विद्यमानाम् चक्रवृद्धि धनग्राहकैः पीडितानाम् जनानाम् समस्याम् अधिनियमम् निर्माय सम्बोधयिष्यति चर्चयम्। मधेस प्रदेशम् शुष्कताग्रस्तम् क्षेत्रम् उद्घुष्य सहाय्य प्रदान सम्बद्धम् एकमुष्ट कार्यक्रमम् आनेतुम् दिनद्वयाभ्यन्तरे निर्णेष्यते, येन मधेस क्षेत्रस्य कृषकेभ्य सहायता प्रदास्यते इति प्रतिबद्धताम् अभिव्यनक। मधेस क्षेत्रे सेचन सौविध्याय सुनकोशी मरण जलान्तरण कार्यम् तीव्रम् विहितम् इति स्पष्टीकुर्वन् प्रधानमन्त्री प्रचण्डः प्रावोचत् निजगढ़ काष्ठमण्डप द्रुतमार्गस्य कार्यम् शीघ्रम् सम्पत्स्यते। सभायाम् नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः अतर्कयत् संविधानस्य रक्षायै चतुर्दलीया समाजवादी संयुतिः संगठिता वर्तते। जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादवः अवदत् संघीयतायाः सबलीकरणम् सुशासनस्य संस्थापनम् च संयुतेर लक्ष्यमस्ति। नेपाल कम्युनिष्ट पार्टी दलस्य महासचिवः नेत्र विक्रम चन्द विप्लवः अकथयत् नेपालक विशेषतायुक्तस्य समाजवादस्य स्थापनात्मकेन मुख्योद्देश्य संयुति संगठिता वर्तते। संयुतौ आबद्धेभ्यः चतुर्भ्यः एव दलेभ्यः प्रतिदलम् जनत्रयस्य समावेशनत्वेन द्वादश सदस्यीया मधेस प्रदेश स्तरीया संयुति उद्घुष्टा वर्तते। उपप्रधान रक्षा मन्त्री पूर्णबहादुर खड्का कथयति सामाजिक सद्भावस्य विशृंखलनकारी प्रवृत्तितः सर्वैः सावधानैर्भाव्यम्। चाङ्गु नारायण नगरपालिकायाः पञ्चम वडा क्षेत्र निर्मितम् वडा कार्यालयस्य स्वास्थ्य केन्द्रस्य च भवनम् ह्य उद्घाटयन् उपप्रधानमन्त्री खड्का देशस्य सामाजिकतायाः राष्ट्रियैकतायाश्च एकस्मिन् सूत्रे क्रोडीकृत्य अग्रेनयनम् आवश्यकम् अस्ति इति प्रावोचत्। उपप्रधानमन्त्री खड्का संघ प्रदेश स्थानीय स्तराणाम् सर्वकारैः मिलित्वा राष्ट्रियैकताम् संस्थाप्य विकासस्य अभियानम् पूरयितुम् सर्वकारेण जनप्रतिनिधिभिः जनतया च एकताबद्धतया अग्रे वर्धनीयमिति बलम् प्रादात्। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ निगदति सर्वकारेण सुशासनस्य पक्षे भ्रष्टाचारस्य विरुद्धे च विहितेभ्य कार्येभ्य जनतायाम् आशा जागृतता वर्तते। माओवादी केन्द्रस्य ललितपुर जनपद समन्वय समित्या ह्य आयोजिते कार्यक्रमे उपप्रधानमन्त्री श्रेष्ठ सुशासनाय आर्थिक समृद्धये न्यायस्य प्राप्त्यै च माओवादी केन्द्रेण सर्वकारात् सदनात् मार्गाच्च अभियानम् संचालितमस्तीति ज्ञापितवान्। उपप्रधान गृहमन्त्री श्रेष्ठ कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य ललिता निवास प्रकरणस्य सामन्तवादस्य अवशेषस्य रूपेण स्थितायाः चक्रवृद्धि धन सम्बद्ध समस्यायाश्च समाधानाय सर्वकारेण विहितानि कार्याणि सुशासनस्य भ्रष्टाचारस्य च विरुद्धे विहितस्य प्रयासस्यैव नैरन्तर्यमस्तीति समस्पष्टयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन सह नेपाल राष्ट्रकोषस्य अधिशासक महाप्रसाद अधिकारी ह्य अमिलत। शीतल निवासवर्तिनी राष्ट्रपति भवने सम्पन्ने तस्मिन् मेलने राष्ट्रपतिम् पौडेलम् अधिशासक अधिकारी देशस्य अर्थतन्त्रस्य विषये अज्ञापयदिति राष्ट्रपतेः सचिवालयः सूचयति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भाषते देशस्य समृद्धये सुशासनाय संविधानस्य क्रियान्वयनाय च सर्वैर्मिलित्वा अग्रे वर्धनीयम्। विराटनगर विमानस्थले ह्य संचारकर्मीभिः सह भाषमाणः अध्यक्ष ओली तास्करीयस्य भ्रष्टाचारस्य राजनीतिक्याः अस्थिरतायाश्च कारणेन राष्ट्रे आर्थिक विकासाय बाधा सृष्टेति हेतोः मुख्य राजनीतिक शक्तिभिः मिलित्वा अग्रे वर्धनस्य विकल्पो नास्तीति बलम् प्रादात्। नेकपा एमाले दलीय केन्द्रीय सचिवालयस्य सिराह जनपदे अद्यतन दिवसाय निर्धारित उपवेश स्थगितकृतो वर्तते। सिराह जनपदस्य धनगढ़ी माई नगरपालिकाया चतुर्थवड़ा क्षेत्रे निर्धारित सचिवालय उपवेश विरल वृष्टे जल विप्लवस्य च कारणेन स्थगितकृतो स्थिति दलस्य केन्द्रीय प्रचार प्रकाशन विभागस्य प्रमुख राजेन्द्र गौतम ज्ञापयति। राष्ट्रिय स्वतन्त्र दलस्य संसदीय दलस्य गतदिने उपविष्टेन उपवेशेन क्षमताया अनुसारेण संसद विषयगत समितेः सभापति पदाय प्रत्याशिताम् प्रस्तुतुम् निर्णीतम् वर्तते। दलस्य सीमाप्रासादस्थे संसदीय दलस्य कार्यालये ह्य उपविष्टम् उपवेशमनु संचारकर्मीभिः दलस्य प्रमुख सचेतक पदीयः सन्तोष परियार संसदक विषयगत समितेः सभापतये प्रत्याशिताम् प्रस्तुतुम् अन्यासाम् समितीनाम् कृते आन्तरगृह कार्यम् विधातुम् च प्रवर्त्यते इत्यगदत्। इति समाचाराः।